एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वासां महिलानां बालानां च अधिकारः समानता सशक्तिकरणञ्च इति समाघोषणया अद्य पञ्चदशोत्तर शततमः अन्तर्राष्ट्रिय महिला दिवसः नेपालेऽपि विविधैः कार्यक्रमैः सह समायोज्यमानोऽस्ति। संयुक्त राष्ट्रसंघस्य आह्वाने प्रतिवर्ष मार्च मासस्य अष्टम दिवसे अन्तर्राष्ट्रिय महिला दिवसः समायोज्यते। संयुक्त राष्ट्रसंघेन अस्य वर्षस्य महिला दिवसस्य कृते कार्याणि गतिशीलानि कर्तव्यानि इति मूल समाघोषणा निश्चिता अस्ति। महिला श्रमिकाणां श्रम शोषणस्य विरूद्धे एकादशोत्तरैकोनविंशशततमस्य ख्रैस्तवर्षस्य मार्च मासस्य अष्टम दिवसे महिला मुक्ति आन्दोलनस्य प्रणेत्र्या क्लारा जेटकिन इत्यनया प्रथमवारम् आन्दोलनं प्रारब्धमासीत् इति हेतोः तस्यैव दिनस्य संस्मरणे संयुक्त राष्ट्रसंघेन प्रतिवर्षं मार्च मासस्य अष्टम दिवसः अन्तर्राष्ट्रिय महिला दिवसत्वेन समायोज्यते। महिला दिवसस्य अवसरे नेपाले सर्वकारेण सार्वजनिकावकाशः प्रदत्तोऽस्ति। पञ्चदशोत्तर शततमस्य महिला दिवसस्य अवसरे राष्ट्रपतिना रामचन्द्र पौडेलेन स्वदेशे विदेशेषु च विद्यमानेभ्य सर्वेभ्य नेपालाभ्य अग्रजाभ्य अनुजाभ्य महिला अधिकार कर्मिभ्यश्च शुभकामना प्रदत्ता अस्ति। राष्ट्रपतिना पौडेलेन लैंगिक समानतायाः महिला सशक्तिकरणस्य च उद्देश्यं पूरयितुं शिक्षायाः स्वास्थ्यस्य वृत्त्युपार्जनस्य निर्णय प्रक्रियायाः राजनीति प्रभृतीनाञ्च सर्वेषु क्षेत्रेषु महिलानां समानतया उपस्थित्यर्थं बलं दत्तमस्ति। अन्तर्राष्ट्रिय महिला दिवसस्य अवसरे उपराष्ट्रपतिः रामसाहेब प्रसाद यादवः सभामुख देवराज घिमिरे राष्ट्रिय सभायाः अध्यक्षः नारायण प्रसाद दाहालस्य शुभकामना सन्देशं दत्तवन्तः। प्रधानमन्त्री केपी शर्मा ओली संविधानस्य प्रभावकारी क्रियान्वयनम् आवश्यकतायाः अनुसारेण परिमार्जनं च कृत्वा अग्रेवर्धनस्य सर्वकारस्य लक्ष्यमस्ति इति स्पष्टयति। कर्णाली प्रदेशसभायाः उपवेशं सम्बोधयन् पूर्वेद्युः प्रधानमन्त्री ओली जनतायाः बलिदानेन संघर्षेण च निर्मितेन नेपालस्य संविधानेन सर्वेभ्य समानाधिकाराः प्रतिस्पर्धायाः प्रदर्शनस्य अवसराश्च प्रदत्ता सन्तीत्यतः संविधानस्य रक्षा क्रियान्वयनं देशजनतयोः हिते आवश्यक संशोधनं चेति कार्याणि सर्वकारस्य कर्तव्यानि सन्तीति अकथयत्। प्रधानमन्त्री ओली आरोप प्रत्यारोपाभ्यां विना स्तरत्रयस्यैव सर्वकाराणां सहकारेण देशस्य विकास समृद्धयोः कृते सक्रियाः भवितुम् अनुरुन्धानः नूतन कार्ययोजनायाः अपेक्षयापि प्रारब्धानां कार्याणां पूरणस्य स्वस्य लक्ष्यमस्तीति असूचयत्। प्रधानमन्त्री ओली केन्द्र सर्वकारेण पूर्णतः प्रदेश स्थानीय सर्वकारेभ्य सहयोगकरणस्य चिन्तनेन कार्यं विधीयमानमस्तीति स्पष्टीकुर्वन् सामाजिक सञ्जाले असभ्यतायाः प्रदर्शनं कृत्वा नेपालीनां सभ्यता संस्कृत्योः विनाशस्य प्रवृत्त्या जनतायाः मध्ये विभाजनम् आनीयते इत्यतः अस्य नियन्त्रणस्य आवश्यकता अस्ति इति समस्पष्टयत्। मध्यपश्चिम विश्वविद्यालयस्य विभिन्नानां संकायानां स्तराणां च त्रिसहस्राणि अष्टौशतानि एकचत्वारिंशश्च छात्राः दीक्षिताः सन्ति। सुर्खेत जनपदस्य वीरेन्द्रनगरस्थे विश्वविद्यालयस्य केन्द्रीय कार्यालये ह्य आयोजिते समारोहे एते छात्राः दीक्षिताः अभवन्। प्रधानमन्त्री विश्वविद्यालयस्य कुलपतिश्च केपी शर्मा ओली दीक्षान्त समारोहे विभिन्नेभ्य उत्कृष्टेभ्य छात्रेभ्य पुरस्कारान् व्यतरत्। प्रतिनिधि सभायाः ह्यस्तनोपवेशेन नवीकरणीयोर्जसा ऊर्जोदक्षतया च सम्बद्धम् एतत् विक्रमवर्षीयं विधेयकमाधृत्य विचार्यताम् इति उक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। ऊर्जो जलस्रोत शेषन मन्त्रिणा दीपक खड्काभिधेन प्रस्तावोऽयं प्रस्तुतः आसीत्। उपवेशे विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् ऊर्जो मन्त्री खड्का विधेयकेन नवीकरणीयोर्जस विकासाय सहयोग प्राप्स्यते, वातावरणीय सन्तुलनस्य स्थापनाय प्रभावकारी भविष्यति, समेषां समुचित धारणां सम्बुद्ध्य विधेयकं समृद्धं करिष्यते चेति प्रावोचत्। तत्पूर्वं प्रतिनिधि सभायाः ह्यस्तनोपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ राष्ट्रिय मानवाधिकार आयोगस्य गतार्थिक वर्षस्य चतुर्विंशं वार्षिकं प्रतिवेदनं प्रस्तौत। उपवेशे सांसदः देशस्य विभिन्न सामयिकावस्थायाः विषयं संसूच्य जनतायै सहयोगस्य अनुभूति प्रदानत्वेन कार्यं कर्तुं सर्वकारस्य ध्यानाकर्षणं व्यदधु। प्रतिनिधिसभायाः उपवेशस्य शून्ये आकस्मिके विशेषे च समयेषु भाषमाणः सांसदः स्वस्य क्षेत्रस्य मार्ग यातायात सार्वजनिक सेवा प्रवाह महिलारक्षण प्रभृतिषु विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। सांसदः अन्तर्राष्ट्रिय महिला दिवसस्य पूर्व सन्ध्यायां सर्वाभ्य शुभकामनां व्याहरन्तः अधुनापि विभेदः जायमानोऽस्तीत्यतः तस्य अन्ताय सर्वैर्मिलित्वा कार्यं कर्तुं बलं दत्तवन्तः। प्रतिनिधिसभायाः अपरोपवेशः फाल्गुनमासस्य सप्तविंशे दिवसे मंगलवासरे दिवा एकवादने अवस्था। राष्ट्रियसभायाः ह्यस्तनोपवेशे राष्ट्रिय सुरक्षा परिषद षष्ठं सप्तमांश वार्षिक प्रतिवेदने प्रस्तुते स्तः। उपवेशे सांसदानां प्रश्नानुत्तरेण कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी सर्वकारेण कृषि उत्पादनानाम् आयातस्य विस्थापनस्य लक्ष्येण संचाल्यमानानां कार्यक्रमाणां कारणेन खाद्यान्नानां फलानाञ्च उत्पादनं वर्धमानमस्ति, पशुजोत्पादने देशः आत्मनिर्भरः जायमानोऽस्तीति अवदत्। कृषि मन्त्री अधिकारी वर्धमान जनसंख्यायाः भोजन प्रवृत्त उद्दृष्टानां विविधतानाञ्च कारणेन स्वदेशस्य कृषि उत्पादनैर्याचनायाः परिपूर्तेः अभावेन आयातः वर्धितोऽस्तीति असूचयत्। कृषि मन्त्री अधिकारी वर्तमानार्थिक वर्षे प्रमुख खाद्य कृषेः धान्यस्य उत्पादने गतवर्षस्य अपेक्षायां लक्षद्वयं एकत्रिंशत् सहस्राणि च मेट्रिक परिमाणेन वृद्धिं भूत्वा एकोनषष्टि लक्ष्याणि पञ्चपञ्चाशत् सहस्राणि च मेट्रिक परिमित प्राप्तमस्ति। दुग्धस्य वार्षिक उत्पादनं षड्विंशतिर्लक्षाणि षोडश सहस्राणि चेति मेट्रिक टन परिमितं च प्राप्तमस्तीति सदनम् असूचयत्। कृषिमन्त्री अधिकारी रासायनिक मलोद्योगस्य स्थापनायाः कार्यं पूर्व सम्भाव्यतायाः अध्ययनस्य क्रमे अस्तीति अज्ञापयत्। प्रश्नोत्तरस्य क्रमे युव क्रीडा मन्त्री तेजुलाल चौधरी क्रीडा क्षेत्रस्य विकासाय विस्ताराय च पर्याप्त निवेशनस्य अभावस्य कारणेन स्थापित क्रीडकानां विदेश पलायनम् अवरुद्धं नास्तीति अवोचत्। तत्पूर्वम् उपवेश्य सांसदः महिला हिंसायाः जातीय विभेदस्य च घटनासु गभीरेण अनुगमनं कृत्वा दोषिणो जनान् दण्डयितुं सर्वकारस्य ध्यानाकर्षणं विदधु। राष्ट्रसभायाः अपरोपवेशः फाल्गुनमासस्य पञ्चविंशे दिवसे दिवा सपादैकवादने वस्ता। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ सामाजिक सञ्जालानां मन्त्रालय सूचीकरणाय अनुरोधि। संचार मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने मन्त्री गुरूङ सामाजिक सञ्जालस्य प्रयोगाय व्यवस्थित कार्यान्वयः गत विक्रम वर्षीयायाः निर्देशिकायाः अनुसारेण मन्त्रालये सूचीकृताः भवितुम् अनुरोधत्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा भाषते स्थानीय सर्वकारः जनतायाः निकटवर्ती सर्वकारो वर्तते। ह्य महोत्तरी जनपदस्य भारतीय सीमावर्ती मनरा शिशुवा नगरपालिकया नवनिर्मितं प्रशासकीय भवनम् उद्घाटयन् सभापतिः देउवा नगरपालिकया प्रदीयमानायां सेवायां सफलतायां सत्यां सरलायां सहजायां च विहितायां सत्यां च जनतया सर्वकारस्य अनुभूतिः करिष्यते इति उक्तवान्। स्थानीय सर्वकाराणां प्रतिदिनं जनतया सह सम्बद्ध विषयाः भवन्तीत्यतः स्थानीय सर्वकाराणां सेवा प्रवाहे कर्मचारिभिर्दायित्ववद्भूत्वा प्रवर्तनीयमिति सभापतिः देउवा असूचयत्।